पुरुषः सहस्राक्षस्सहस्रपाद सभूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेतदम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः यदन्येनातिरोहति एतापानस्य महिमा अतोऽध्यायाकंश्च पुरुषः आधोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोऽप्रबुधैः पुरुषः आदोऽस्येह बभात् पुनः ततो विश्वम् व्यक्रामते शासनानशने अभि तस्माद्विराट जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा एवायज्ञमतन्वता वसन्तो अस्याश्रीराज्यम् ग्रीष्म यत्म शरद्धविः सप्तास्यासन् परिहयः त्रिसप्त समिधकृताः एवायद्यज्ञम् दन्वानाः अभद्रम् पुरुषम् पशम् तैयज्ञम् बर्हिषि प्रोक्षण्ये पुरुषम् जातमग्रतः तेन देवा अयजन्द साध्यार्षयश्चये तस्माद्यज्ञात् सर्वभूतः सम्भृतम् वृषधाज्यम् अशोकस्तागश्चक्रे वायव्याने अरण्यान् ग्राम्याश्चये तस्माद्यज्ञात् सर्वभूतः ऋजः सामानि जज्ञिरे छन्दाभंसि जज्ञिरे तस्माद् यजस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयाततः गावोह जज्ञिरे तस्माद् तस्माज्जाता अजावयः यत्पुरुषम् यददुः यथाव्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरो बाधावुच्येते ब्रह्मणो अस्य मुखमासीत् बाहूराजन्यकृतः भूरो तदस्य यद्वैश्यः अद्यागम् सूत्र अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत याभ्या आसीदन्तरिक्षम् शेष्णौ समवर्तत अद्याम्भोभिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदागमेतम् पुरुषम् महान्तम् नित्यवर्णम् तमसस्तु काले सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा इव धन्यदास्ते धाता पुरस्ताद्यमुदा जहार शत्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इव भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्दधेवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्दे यत्र पूर्वे साध्यासन्दिधेवाः ॐ नमो नारायणाय अद्भ्यः सम्भूर पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टाभिगतद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाघमेतम् पुरुषम् महान्तम् इत्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अङ्गः अजायमानो बहुधा विजायते तस्य धीरा बलिजानन्दियोनिम् मदीयाम् पदमिच्छन् विभेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्दः देवा अध्येतदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा सन्वशे ह्रेश्च ते लक्ष्मेश्च पत्न्योः अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणाम् अमम् मनिषाणाम् सर्वम् मनिषाणाम् सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वम् नारायणगम्भरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगम् शाश्वतगम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणपरः नारायणपरम् ब्रह्मतत्त्वम् नारायणपरः नारायणपरो ध्याताभ्यानम् नारायणपरः यच्च किञ्चिज्जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च सत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगम् समुद्रेन्दम् विश्वशम्भुवम् आत्मकोशप्रदीकाशकम् हृदयम् चाप्यधोमुखम् अधो निष्ट्याविदस्यान्देनाभ्यामुपरि तिष्ठति द्वारमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ददगम् शिराभिस्तुलम् भक्त्या कोशसन्निभम् तस्यान्ते सुशिरगम् सोष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाच्चर्विश्वतो मुखः सोऽग्रभुद्विभजन् तिष्ठन्नाहारमजरकविः निर्यहोर्ध्वमदशायि रश्मयस्तस्य सन्धता सन्धापयति स्वन्देहमापादतलमस्तकः तस्य मध्ये वन्निशिका अनीयोर्ध्वाभ्यवस्थितः नीलतो यदमध्यस्ता विद्दिल्लेखे बभास्वर नीवारशोकभद्रन्विभीता सत्यनुपमा तस्या आशिखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिस्तेन्द्रः सोऽक्षरः परमस्वराड् ऋतगम् सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् विष्णोर्नुकम् धीर्याणि प्रवोचं व्यपाच्चिभानि विभमेर जातुं सियो अस्कभायदुत्तरगं सदस्तं विचक्रमाणश्चेदोरुभायो विष्णो रजाटमसि विष्णो ष्ठमसि विष्णोज्ञप्रेस्तो विष्णो द्यूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ शान्तिः शान्तिः शान्तिः।